द्वितीयमपि करोमि. ओके, सो इन् द शत्रुप्रत्यय समानसमये कार्यद्वयम् अस्ति. ओके, दट् मच् यू केन् कीप् इन् मैण्ड् एण्ड् वील् सी दट् मच् लेटर्. सो नो पायिण्ट् इन् गेटिङ्ग् कन्फ्यूस्ड् अट् दिस् टैम्. Okay, let's go to number five. So can you see the screen properly?
Yes,
Mahalaya.
Mahalaya.
So did everybody have to download the app and not go via the browser? Is anybody attending via the browser?
आम् महोदय, I'm attending via browser.
I had to download the app onto the desktop.
I also had to download.
Yeah, I also
downloaded.
Okay. So let's look at this fifth lesson. अपर्णा भगिनी किञ्चित् पठतु, अधोलिखितं पठतु, द वन् इन् द इटालिक्स्. इफ् यु केन् सी मै कर्सर्, केन् यु रीड् दट्?
आं महोदय. रामः यत् जानाति तत् चिह्नेन, यत् न जानाति तत् क्रास् चिह्नेन च उपरि सूचितं. तथैव सः यत् आनीतवान् तत् राइट चिह्नेन, यत् न आनीतवान् तत् क्रॉस चिह्नेन च सूचितम्. एतदाधारेण वाक्यानि लिखत.
ओके, सो सो लुक एट द वर्ड्स एट द टॉप. जानाति, ओके, एंड देन सम वर्ड्स आर गिवन. उदाहरणं पठतु भगिनी.
रामः वेदान् जानाति.
अत्र वेदाः शब्दस्य द्वितीया विभक्ति का वचनं? वेदाः इस् वाट्? सो प्रथमा बहुवचनं, सो यू हव् टु यूस् द द्वितीया बहुवचनं. ओके, बालकृष्णमहोदय अग्रिमं करोतु. मन्त्राः.
रामः मन्त्रान् जानाति.
सम्यक्, धन्यवादः महोदय.
धन्यवादः.
उषा भगिनी अग्रिमं शब्दाः.
अस्तु महोदय. रामः शब्दान् न जानाति. अग्रिमं करोतु.
सुनील महोदय अग्रिमं करोतु.
आं महोदय. रामः आपणाः जानन्ति.
आपणाः इस् वाट्? किं वचनं? किं
आपणाः? पुल्लिङ्गः वचनं.
पुल्लिङ्ग एकवचनं वा?
पुल्लिङ्ग बहुवचनं. सोरि, बहुवचनं.
सो द्वितीया बहुवचनं किं भवति?
द्वितीय बहुवचन आपणैः
आपणान् लैक् वेदान्
ओ आपणान् या
Yeah, takes a little getting used to, but everything will be the an Ramaha Raman.
Right.
Ramam Ramau Raman. Yeah. Ti Bhavati. If you look at this chart, Devan.
Devan, okay. Okay.
Yes. Devaha below that Deva.
Oh. Dhanyavada.
Dhanyavada. Suhasini Bhagini, अग्रिमं करोतु
रामः विज्ञानवार्तान् न जानाति
अत्र वार्ता इस् वाट् विज्ञानवार्ता इस्
साइंटिफिक न्यूज़ और
Right, but what is it pullinga, strilinga?
Varta, okay, it is strilinga.
Strilinga. Okay. So strilinga bahuvachan, dvitiya vibhakti bahuvachan will be the same.
Sitaha, okay.
Sitaha, okay.
So, let's see.
So, Ekanimisham, let me put it back. So, Kim Bhavati?
Ramaha Vijnana Vartaha Janati. Na Janati.
Avagatam, did you get it?
Yeah, depending
on the lingam, you have to, it'll become either, so you have to know what the lingam of the word is. Basically, you have to know what gender it is. And then accordingly, use the Dvitiya Vibhakti Bahuvachana or Ekavachana. Here, I think many of them are Bahuvachana. Subodh Mahodaya, Agrimam.
Sorry. Okay, Ramah Charchaha Na Janati.
सम्यक् महोदय
धन्यवादः
सरस्वती भगिनी अग्रिमम्
रामः काव्यानि जानाति काव्यं नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्गं काव्यानि अकारान्त नपुंसकलिङ्ग बहुवचनं सो इट् बिकम्स् काव्यानि काव्यानि द्वितीया विभक्ति सेम्
उत्तमं सञ्जना भगिनी अग्रिमं शास्त्राणि
रामः शास्त्राणि जानाति
जानाति जानाति सम्यक् रामेश्वरी भगिनी अग्रिमं श्लोकाः
रामः श्लोकान् न जानाति
सम्यक् श्लोकान् राजश्री भगिनी अस्ति वा
रामः सदाचारान् na janati. Is it a pullinga word like sadacharan na na janati? Na janati, sorry.
Puna vadatu.
Ramah sadacharan janati.
Samyak. Uttama. मञ्जु महोदय एकादश उपरि
ओके
स्यूताः
ओके रामः स्यूताः आनीतवान्
स्यूताः स्यूतः खलु स्यूतः
ओके स्यूतः
इस् अ पुल्लिङ्ग
ओके स्यूतान् आनीतवान्
So the key here is to understand which lingam the word is. Okay, then once you figure that out, then it's simple. Madhavi Bhagini?
Haan, Mahode. Granthaha akaranta pullinga shabdaha bahuvachanam granthaan रामः ग्रन्थान् आनीतवान्
सम्यक् अग्रिममपि करोतु
सुधाखण्डः अपि नकारान्तपुल्लिङ्ग शब्दः बहुवचनं रामः सुधाखण्डान् न आनीतवान्
सम्यक् धन्यवादः भगिनि
धन्यवादः
सुधाखण्डम् इत्युक्ते सुधाखण्डः जानाति वा जया भगिनी अग्रिमद्वयं करोतु
आं महोदय पुस्तकानि अकारान्त नपुंसकलिङ्ग बहुवचनशब्दः रामः पुस्तकानि न आनीतवान् यानपेटिकाः अकारान्तपुल्लिङ्गशब्दः एक बहुवचनशब्दः रामः आकारान्त स्त्रीलिङ्गशब्दः यानपेटिकाः रामः यानपेटिकाः न आनीतवान्
धन्यवादः भगिनि
धन्यवादः
हेमाङ्गी भगिनी अग्रिमद्वयम्
आम् रामः अङ्कन्यान् जानाति रामः लेखन्यान् न जानाति
अङ्कनी का विभक्ति का किं वचनं
प्रथमा बहुवचनं
लिङ्गं
स्त्रीलिङ्गम् अकार ईकारान्त स्त्रीलिङ्गम्
किं भवति तत्र द्वितीया विभक्ति बहुवचनं किं भवति अङ्कन्यः
अङ्कन्यः आम् लेखन्यः अङ्कन्यः
अङ्कनी अङ्कन्यः द्वितीया विभक्ति अङ्कनीम् एकवचनं बहुवचने अङ्कनी
अङ्कनीन
अङ्कनीः भवति
अङ्कनी आम् आं क्षम्यताम्
नदी नद्यौ नद्यः नदीं यौ नदीः खलु एकनिमिषम् I'm trying to strain your memory. Okay.
Yeah, sure.
No problem. Gauri Pashyatu. So, Nadi, Nadyav, Nadyaha, Nadim, Nadyav, Nadihi Bhavati.
Nadim, Ankanihi, Ankanihi. Rama, अङ्कनीः जानाति
न न न उपरि किम् अस्ति द टाप् आनीतवान् खलु
आनीतवान् रामः अङ्कनीः आनीतवान् आम्
सम्यक् अग्रिममपि करोतु
रामः लेखनीः न आनीतवान्
सम्यक् धन्यवादः भगिनि
धन्यवादः
अपर्णा भगिनी अग्रिमद्वयं
घटी बहुवचनं स्त्रीलिङ्गं खलु
सम्यक्
ओके रामः
द्वितीया विभक्ति बहुवचनं किं भवति
घटीः रामः घटीः आनीतवान् कर्तर्यः घटीः कर्तर्यः स्त्रीलिङ्गकर्तरी बहुवचनं रामः कर्तरीः न आनीतवान्
सम्यक् धन्यवादः भगिनि
धन्यवादः
भूमि भगिनी अन्तिमं करोतु
रामः पत्रिकाः न रामः पत्रिकाः आनीतवान्
सम्यक् पत्रिकाः What is the lingam vachanam? Can you explain?
Patrikaha is strilinga bahuvachanam.
Samyak bhagini. Dhanyavada.
Dhanyavada.
So, okay. So, just to summarize, first, understand what the lingam of the word is. That is the main thing. Once you figure that out, it will be simple to get the Dvitiya Vibhakti, what is the Ekavachanam or Bahuvachanam, okay? So, Kinchit Abhyasam Karotu Grihe.
I have one question, new to the class, so please bear with me. When you're saying lingam of the word, is it, I have to go back to the root word and try to check the lingam for that one, is it?
If you look, you have to understand what is the Prathama Vibhakti Ekavachanam. So from there, depending on what is the, whether it is Akaranta, Akaranta, Ekaranta, then you will know.
Okay, thank you.
Okay, it is mostly by practice because we'll be seeing the Ikaranta, Ukaranta words also. But so far, we have seen Akaranta, Pullinga, ఆకారాంత స్త్రీలింగ ఈకారాంత స్త్రీలింగ ఓకే అండ్ అకారాంత నపుంసక లింగం విచ్ ఎండ్స్ విత్ ద అం పుస్తకం మిత్రం
ఓకే థ్యాంక్ యూ
Okay, so just try to do this exercise 6 for your understanding. If we go through all exercises, it'll take a little longer. So hopefully you can cover this. And we'll go to Okay, so we'll look at a new word, paritaha. Okay, paritaha. Subodh Mahodaya, kinchit patatu.
Okay. Paritaha itetasya shabdasya yoge dvitiya bhavati. Udaharanam. Mama graham paritaha udhyanam asti.
Ah, dhanyavada Mahodaya. Paritaha. Okay. Or read the next one also. It explains what it means. Kinchit patatu.
Visheshaha Hindi bhashayam ghar ke sabhi or iti shashti bhavati. Samskrute tu dvitiya eva iti sarvada smarata.
Hmm. Ityukte kim. So this is around the house. Okay, it's just explaining. You don't need to think of the Hindi word, but just remember in Sanskritam, paritaha is used with the dvitiya vibhakti of the object it is referencing. Mama griham paritaha udhyanam asti. What does it mean? Around my house, there is a garden. Paritaha means on all sides. Is that exactly what it means? Okay, on all sides. If you look at the picture, the front, side, back. Okay, there are some trees. So, mama griham paritaha udhyanam asti. It is not mama grihasya paritaha. Mama griham paritaha udhyanam asti. These are some specific words, so which is why they are mentioned here. So we'll do some abhyasam again. So anybody new has joined today? Kinchit parichayam dadatu, if you are attending for the first time today.
Yeah, this is Sahitya. I'm attending.
Namaste, Bhagini.
New to this class. Yeah, dhanyavad.
Prayatnam karotu pratamam. Trishyateva, can you see the screen? Devalayaha paritaha prakaraha. Okay. Atra pashyatu udaharanam asti.
Okay.
Mama griham paritaha. So you have to use the dvitiya vibhakti of these words.
Okay. I don't know, Mahadaya. I'll try next time. I'll catch up.
Okay. And anybody who hasn't done yet, if you want to volunteer? Anita Bhagini, va?
Aam, Mahodaya.
Oh, namaste, Bhagini. Karotu.
Devalayam paritaha prakaraha asti.
Samyak. Uttama.
Mahodaya, prakaraha ityukte kim?
Like a wall. Boundary wall or, you know. There's a wall around the temple. Prashna asti va?
Namahodaya.
Anita Bhagini, agrimam api karotu.
Shala yam paritaha kridanganam asti.
Shala is what?
Shala, Shala is like Strilinga. Shala yaha paritaha. Shala is like Strilinga. So,
Dvitiya ekavachanam kim bhavati? Sita, 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 Sitaam.
Shalam. Shalam paritaha. Sridangaram asti. Shalam.
Shalam. Samyak bhagini. Manju Mahodaya, agrimam karotu.
Sharkaram paritaha. पिपीलिकाः अस्ति
अस्ति वा पिपीलिकाः इस् वाट्
अस्मि अस्मि बहु अस्मि
अस्मि वा और् सन्ति
सन्ति सारि सन्ति
पुनः वदतु
शर्करां परितः पिपीलिकाः सन्ति
सम्यक् अग्रिममपि करोतु
चन्द्रं परितः मेघाः सन्ति
सम्यक् धन्यवादः महोदय And don't be scared of making mistakes, okay? That is how we all learn. So no problem. Yeah. We are here to make mistakes and learn.
Yeah, thank you.
Dhanyavadam. Bhumi Bhagini, Agrima Dvayam Karotu.
Vedikam Paritaha. प्रेक्षकाः सन्ति तां परितः सख्यः सन्ति
can you say the last one again? Couldn't hear you.
Okay. तां परितः सख्यः सन्ति
उत्तमं भगिनि धन्यवादः
धन्यवादः what प्रेक्षकाः
किं भगिनि
मीनिङ्ग् प्रेक्षकाः वट् इस् द मीनिङ्ग् फोर् प्रेक्षकाः
प्रेक्षकाः वा
हा
प्रेक्षकाः इस् लैक् या एक्साक्ट्लि आडियन्स्
वट् इस् वेदिका
Vedika, stage. Like a platform, stage. A stage. Yeah.
It's stage.
Hemangi, Hemangi Bhagini, Agrima Dvaya.
Adhyapakam paritaha. बालकाः सन्ति अध्यापिकां परितः बालिकाः सन्ति
पुनः वदतु
अध्यापकां परितः बालकाः सन्ति
अध्यापकाः इस् वाट्
प्रथमा सारि प्रथमा बहुवचनं प्रथमा
किं
बहुवचनम् अध्यापकान् परितः बालकाः सन्ति अध्यापिकाः परितः बालिकाः सन्ति
सम्यक् सो अध्यापकः is akaranta pullinga and adhyapikaah akaraanta striling. Dhanyavaada bhagini.
Dhanyavaada.
Balakrishna mahodaya antimadvayam.
दीपां परितः कीडाः सन्ति पुष्पाणि पुष्पां परितः भ्रमराः सन्ति
पुष्पाणि किं वचनं लिङ्गम् पुष्पं खलु पुष्पं मिस् वाट्
पुष्पं मिस् नपुंसकलिङ्गम् एकवचनं
पुष्पाणि
पुष्पाणि बहुवचनं
बहुवचनं सो वाट् विल् बि द द्वितीया बहुवचनं किं भवति नपुंसकलिङ्गे वनं वने वनानि वनं वने वनानि प्रथमा द्वितीया समानमेव
ओके ओके पुष्पं पुष्पाणि यस् पुष्पाणि परितः भ्रमराः सन्ति
सम्यक् धन्यवादः महोदय
धन्यवाद
Whenever you see ani ani you know it's a napunsakalinga shabda okay pushpani vanani so automatically it's the same prathama prathama vibhakti dvitiya vibhakti yep.
Okay, so look at this this chart and do this at home. Okay. It covers the same thing, paritaha. So paritaha is, what does it mean, Balakrishna Mahodaya? Paritaha.
All around.
Samyak. So similarly, we'll look at Ubhayataha. Okay, Paritaha is one. Ubhayataha. Nutana Vakyam. Madhavi Bhagini, Kinchit Patatu.
Ubhayataha. Ityasya Padasya Yoge Api Dvitiya Eva Bhavati. Yatha. मम गृहम् उभयतः सस्यानि सन्ति चित्रं पश्यत गृहस्य वामतः दक्षिणतः च पार्श्वद्वये केवलम् अत्र वृक्षाः सन्ति अतः
एकनिमिषं सो चित्रं पश्यत गृहस्य वामतः दक्षिणतः व्यसीन् वामतः दक्षिणतः किम् अस्ति वामतः दक्षिणतः वदतु भगिनि
वामतः लेफ्ट् सैड् एण्ड् दक्षिणतः रैट् सैड्
पार्श्वद्वये मीन्स् बोत् सैड्स् केवलम् अत्र वृक्षाः सन्ति सो आन् टु सैड्स् When something is there on two sides, it is Ubhayataha. So you can say on two sides of the road, or both side, on both sides of the road, or both sides of the house. Patatu. Agre patatu.
Ataha Ubhayataha iti prayogaha kritaha. Dashami prishthe sthitam chitram pashyata. तत्र गृहस्य पुरतः पृष्ठतः वामतः दक्षिणतः च सर्वासु दिक्षु उद्यानम् अस्ति
अतः तत्र परितः इति प्रयोगः कृतः. अतः तात्पर्यम् एवं सिद्ध्यति परितः सर्वासु दिक्षु उभयतः पार्श्वद्वये केवलम्.
धन्यवादः भगिनि. ओके, सो दिस् इस् अ वेरि गुड् डिस्क्रिप्शन्. गृहस्य वामतः दक्षिणतः च केवलम् अत्र वृक्षाः सन्ति. वामतः दक्षिणतः, अतः उभयतः इति प्रयोगः कृतः. मम गृहम् उभयतः सस्यानि सन्ति. ओके, दे हेव् जस्ट् एक्स्प्लेन् वाट् परितः इस्. ओके, वामतः दक्षिणतः पुरतः पृष्ठतः. ओके, परितः सर्वासु दिक्षु मीन्स् इन् आल् डैरेक्शन्स्, उभयतः पार्श्वद्वये केवलम् आन् बोत् सैड्स्. प्रश्नः अस्ति वा?
आम्, अत्र पार्श्वद्वये इत्युक्ते एक्साक्ट्लि वाट्?
पार्श्वद्वये मीन्स् सैड्, टु सैड्.
Okay.
Parshva side. Okay. So we have seen dvayam, right? Balika dvayam, balaka dvayam. So it is the same form. Parsha dvaye. Okay. Can you say, since you asked the question, ka vibhakti hi?
Ditya vibhakti.
Parsha dvaye. पुस्तके पार्श्वद्वये
सप्तमी प्रथमा
सप्तमी एकवचनम्. ओके, पार्श्वद्वयम् इस् अ प्रथमा एकवचनम्. सो पार्श्वद्वये विल् बि सप्तमी एकवचनम्. अवगतम्?
आम्, धन्यवादः.
So, the main thing to keep in mind is ubhayataha is to be used with the dvitiya vibhakti. Ubhayataha and paritaha. Okay.
Mohade, ekam prashnam asti va?
Ekaha prashnaha.
Ekaha prashnaha asti. Ubhayata is used for opposite sides or any two sides?
See, it's on sides, on both sides, like on the left and the right.
So actually my question was, if I want to say the tree is behind my house and to the right of my house, would I use ubhayata, or is it like two opposite sides?
Two opposite sides.
धन्यवादः महोदय.
ओके, किञ्चित् पुनस्मरणं करोतु गृहे. इदानीम् एकां कथां पश्यामः. कथां करोतु.
एतत् सर्वं करोतु गृहे. प्लीज् डू दीस् एक्ससैजेस् फार् उभयता, सो यु गेट् एन् ऐडिया. इदानीम् एकां कथां पश्यामः. किञ्चित् पठामः. कथा अस्ति वञ्चकः बकः. बकः इत्युक्ते एकः क्रेन्, एकः पक्षी, क्रेन् इति. वञ्चकः बकः. किञ्चित् पठामः अत्र. प्रथमं कः पठति? अपर्णा भगिनी किञ्चित् पठतु, आरम्भं करोतु.
आं भगिनि,
भगिनी किञ्चित् किञ्चित् मन्दं मन्दं पठतु.
आं महोदय. वञ्चकः बकः. कुत्रचित् अरण्यप्रदेशे एकं सरोवरम् आसीत्. तत्र बहवः जलचराः आसन्. कश्चन बकः अपि तत्र बहुकालतः वसति स्म. कालान्तरे
भगिनि धन्यवादः. कुत्रचित् कुत्रचित् अरण्यप्रदेशे एकं सरोवरम् आसीत्. अवगतं सर्वे इति मन्ये. कुत्रचित् ओके, इन् आल् द स्टोरीस् यू विल् गेट् समवेर् ओके. कुत्रचित् अरण्यप्रदेशे, अरण्यम् इति जानाति खलु, इन् अ फारेस्ट् एकं सरोवरम् आसीत् ओके. देर् वास् अ पाण्ड्. तत्र बहवः जलचराः आसन्. All the animals in the water. Bahava jalachara. Okay, sea animals were there. Asan. Okay. Bhutakale asan. Bahuvachane bhutakale. Kashchana bakaha api tatra bahukalatah vasatisma. Okay. Kashchana sam bakaha. Sam crane api. Api tatra bahukalatah. From a long time vasatisma. वसति स्म. वि हेव् सीन् इन् द प्रथमस्तरे दृष्टवन्तः खलु, वसति स्म. इट् वास् लिविङ्ग् दे ओके. अग्रिमं भूमि भगिनी पठतु अग्रिम वाक्यद्वयं.
कालान्तरे सः बकः वृद्धः अभवत्. वार्धक्ये सः मत्स्यान् ग्रहीतुम् अपि असमर्थः अभवत्.
पठतु.
इदानीं कथम् आहारः सम्पादनीयः इति चिन्तयन् सः एकम् उपायम् अन्विष्टवान्.
धन्यवादः भगिनि. इदानीं तत्र बिन्दु अस्ति एकम्. इदानीं कालान्तरे सः बकः वृद्धः अभवत्. कालान्तरे सम् टैम् पास् इन् ओके, इन् सम् टैम् सः बकः वृद्धः अभवत्. दट् क्रेन् बिकेम् दट् बर्ड् बिकेम् ओल्ड् ओके. वार्धक्ये ओके, इन् ओल्ड् एज् सः मत्स्यान् ओके. मत्स्य इति मीन्स् फिश् ओके. मत्स्यान् ग्रहीतुम् अपि ओके, ग्रहीतुम् अपि असमर्थः अभवत् ओके. सो इट् कुड् नाट् केच् फिश् ओके. असमर्थः, समर्थः न भवति. सो सम् इट् कुड् नाट् केच् वदतु.
क्षम्यतां. कालान्तरे इति सप्तमी विभक्ति खलु?
आम् 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 महोदय. कालान्तरे इन् टैम् ओके.
धन्यवादः.
असमर्थ अभवत् ओके. सो अभवत् ऐ थिङ्क् वी हेव् सीन् रैट्. इट्स् अ स्टोरी. सो आल् इस् इन् भूतकालरूप आत् भूतकाल दर्शयति. इदानीं कथम् आहारः सम्पादनीयः. सो इट्स् इन् कोट्स् रैट्. इदानीं मीन्स् नौ ओके. इदानीं कथम् आहारः सम्पादनीयः. सो हौ टु get my food okay. Sampadaniya means it's gathering or collecting okay. So sampadaniya iti chintayan saha ekam upayam anvishtavan okay. Here again we have that chintayan. So it is like a continuous tense. He is thinking. The bird was, he is thinking. Saha ekam upayam anvishtavan. It makes a yukti or it thinks of some upayam okay. So sir agrima dvayam Murli Sunil Mahodaya read these two paragraphs, this and this sentence.
सरोवरस्य तीरे स्थित्वा अश्रूणि मुञ्चन् सः रोदितुम् आरब्धवान्। तदा एकः काकटकः तस्य समीपम् आगत्य पृष्टवान्, माम किमर्थं भवान् रोदनं करोति इति।
धन्यवादः महोदय। So what happens? Sarovarasya tire stitva. So that near that sarovara, he's standing. Stitva ashruni munchan. Ashruni means tears. Okay, it's shedding tears. Saha roditum arabdavan. Okay, he started crying. Okay, roditum arabdavan. Tada एकः कर्कटकः तस्य समीपम् आगत्य पृष्टवान्। सो वी हेव् आल् दिस् सीन् रैट्, प्रथमस्तरे दृष्टवन्तः खलु, आगत्य ओके आरब्धवान् भूतकालरूपम्, आगत्य इस् लभन्त आगत्य। तदा एकः कर्कटकः मीन्स् अ क्राब् ओके, तस्य समीपम् आगत्य कम्स् नियर् हिम् पृष्टवान्, कम्स् नियर् हिम् एण्ड् हि आस् okay prishtavan, it's in quotes, okay, mama means uncle, kimartham bhavan rodanam karoti, why are you crying, okay, yes why are you crying eti.
Sheila bhagini asti va? Sheila bhagini, Riya bhagini, okay, Suhasini bhagini agrimam patutu अग्रिम वाक्यद्वयं त्रयं।
हा महोदय। तदा बकः उक्तवान् अद्य दैवज्ञमूकतः अहम् एकां दुर्वार्तां श्रुतवान्, इतः परं द्वादशवर्षपर्यन्तम् अत्र वाट् इस् दट् वर्ड् अनावृष्टिः भविष्यति इति।
आम् धन्यवादः भगिनि। तदा बकः उक्तवान् ओके, सो ही इस् आस्किङ्ग् रैट् वै आर् यु क्रैङ्ग्। तदा बकः उक्तवान्, द क्रेन् सेस् अद्य दैवज्ञमुखतः अहम् एकां दुर्वार्तां श्रुतवान् ओके, सो ही सेस् टुडे ऐ टाक् टु अ दैवज्ञ मीन्स् इट्स् लैक् अस्ट्रालजर् ओके, भविष्यवाणी, हूएवर् टेल्स् दट् यु केन् से दैवज्ञ मुखतः from his mouth, okay, mukatah aham ekam durvartam shrutavan, I heard a bad news, durvarta. In a quotes it says what daivadnya said, itah param, from going forward, okay, itah param dvadasha varsha paryantam, okay, 12 years going forward, 12 years atra here anavrishtihi bhavishyati. Okay, here there will be no rains, okay, you know right, ativrishti, anavrishti means scarce, rainfall will be scarce, anavrishti bhavishyati iti. Okay, so Rajasri bhagini agrimam patatu
asmakam.
1 minute. I'm not able to focus properly.
Ah, that's is it very small or can you see the screen?
Yeah, I can. No, my machine is having
some... Ah, that's okay. Don't worry.
I'll do it. Asmakam, no, I can do it. Asmakam, okay, sarovare. Asmakam sarovare kinchi deva jalam asti. Shigrameva tadapi shushkam bhavishyati. Tada mama bhandavaha bhavantaha sarve api mritaha bhavishyati. Bhavishyanti kila iti mama ativa dukkham iti.
Dhanyavada bhagini.
Okay,
dhanyavada. अत्र अस्माकं सरोवरे किञ्चिदेव जलम् अस्ति. ओके, इन् अवर् सरोवर, इन् अवर् पाण्ड् वेर् इस् वेरि लिटिल् आर् लिटिल् वाटर्. ओके, शीघ्रमेव तदपि शुष्कं भविष्यति. सो क्विक्लि, शीघ्रम् एव तदपि, देट् आल्सो विल् बिकम् ड्रै. शुष्कं मीन्स् ड्रै भविष्यति. तदा मम बान्धवाः भवन्तः sarve api mrutaha bhavishyanti. So then all my relatives, right, bandavaha bhavanta, all of you, our my relatives will die. Okay, kila, so all of you will die, isn't it? Iti mama ativa dukkam, that's why I am very sad, that's why I am crying. So iti, okay, it's within quotes, so it's he saying that's why I am crying. Okay, agrimam. संजना भगिनी पठति वा अग्रिम वाक्यद्वयम्?
तत् श्रुत्वा कर्कटकः तान् वैतन् अन्यजलवरान् दीतवान् ते सर्वे अपि पीताः वाक्यस्य समीपम् आगतवन्तः. विन्येन तं पृष्टवन्तः माम् अस्माकं प्राणरक्षणार्थं
कोऽपि. देर् इस् अ, दट्स् काल्ड् अ विग्रहचिह्न. सो कोऽपि, ओके, यु हाव् टु जस्ट् कोऽपि, दट्स् आल्. That S kind, no, in the middle, you have to say, you just pronounce kopi, that's all.
Kopi. Upataha.
Upayaha.
Upayaha. Astiva iti.
Utamamari. So, tachrutva karkatakaha tam vartam anya jalacharan niveditavan. So tat shrutva, after listening to that karkataka, that crab, what it does, tam vartam, that news, he tells all the anya jala, all these all you are in the in that pond, he tells it to everyone else. Okay, anya jala charan, whoever were in that pond, he tells them. Okay, te sarve api bhitaha, all of them are afraid. Okay, bhitaha bakasya samipam agatavantaha, they came to that crane very scared, they came, everybody gathered there. Vinayena tam prishtavanta, all of them vinayena means with very so he is a big guy, like they were like carefully came and with respect, you can say with respect. they just came and asked him, Mama, Uncle, Asmakam Prana Rakshanartam Kopi Upayah Asti Va. Okay. They asked them, to save our life, is there a plan? Okay, can we save ourselves? So he is they are asking, right, Bakka? So what we can do, we'll do this next week. We will cover some more of Dvitiya Vibhakti. We have, I forgot about that. We have another portion of Dvitiya Vibhakti that we'll cover, and the story will finish it next week, okay?
So, okay, Dvitiya Vibhakti is kind of important, and even in the level one, I think people had some kind of confusion as to when to use it, how to use it, and all that. So, Kinchat Vistarena Pashyama. So, Gatavarge Aham Uktavan. Ekam Dve Ekam. Aham Apanam Gachami. Okay, so Aham is the Kartrupadam. Apanam is the Karmapadam. And Gachami is the Kriyapadam. Okay, so Kartrupadam, Karmapadam, Kriyapadam. So these are important words. You have to keep them in mind. So that is the basic structure of a Sanskritam sentence. So atra Usha Bhagini Kinchit Patatu Dashama
Rama Thalam Khadati Ityatra Thalam Karmapada Etasmin Vakye Ekam Karma Asti.
So Kim Vadati Yatra Ramaha Phalam Khadati. So Ramaha Prathama Vibhakti Ekavachanam. Phalam Dvitiya Vibhakti Bhavati. Karma Padam is always in the Dvitiya Vibhakti. Khadati Kriya Padam. Okay. So Agrimam Patatu Bhagini.
Ramaha Adhyapakam Prashnam Prichati. Ityetasmin Vakye Adhyapakam Iti Prashnam Iti Cha Karma Pada. Evam Atra Karma Pada Dvayamasti. Ataha Eta Vikarnakam Vakyam.
Dhanyavada Bhagini. So here there is one Karma Padam. That's what it says. Ramaha Phalam Khadati. Ekameva Asti Karma Padam. Dvitiya Vakyam Pashyatu. Ramaha Adhyapakam Prashnam Prichati. Ramaha Adhyapakam Prashnam Prichati. So Ramaha asks the question of the teacher. Ramaha Adhyapakam Prashnam Prichati. So Dvikarmakam Vakyam. This is called Dvikarmakam Vakyam. And if I remember, I think one of the classes, somebody had a question on this in the level one. So you can have two karma padams in a sentence. Okay. So karma padam means in English you would refer to them as object. Okay. Ramaha is the subject. Phalam is the object. Khadati is the verb. So I'm stressing it a little bit because this is important for you to understand as to when to use the Dvitiya Vibhakti. Okay, the Karma Padam is always in the Dvitiya Vibhakti form. So you have to practice this a little and it will become clear as to when to use the Dvitiya Vibhakti. So hopefully you can see this. We'll quickly do let's quickly do some exercises to get a feeling for this. Anita Bhagini, Pratama Vakyam Prayatnam Karotu.
पान्थन आपणिकं मार्गे
भगिनी किञ्चित् उच्चैः वदतु. उच्चैः न श्रूयते.
पान्तः आपणिकं मार्गं पृच्छति.
सम्यक्, धन्यवादः. अपर्णा भगिनी अग्रिमम्.
भिक्षुकः गृहिणीम् अन्नं प्रार्थयते.
सम्यक्. एण्ड् एनि टैम् एनिबडि इस् रीडिङ्ग् प्रश्नाः सन्ति चेत् पृच्छन्तु. बालकृष्णमहोदय अग्रिमं करोतु.
कर्मकरः सम्मार्जनीं प्रकोष्ठं नयति.
सम्यक्.
च नयति, वि हव् टु से
किं महोदय?
सम्मार्जनीं प्रकोष्ठं च नयति, शुड् वि से?
न, सम्मार्जनीं प्रकोष्ठं नयति. सो कर्मकरः सम्मार्जनीं ब्रूम् आर् सम् क्लीनिङ्ग् मेटीरियल्. प्रकोष्ठम् इस् द रूम्. ओके, सो द वर्कर् ब्रिङ्ग्स् अ ब्रूम् इन् टु द रूम्.
ओके,
अजय् महोदय, ऐ हव् अ प्रश्नः अस्ति. So the if I translate this, the worker is getting the broom, getting or gets the broom from the room, from the room, or prakoshte or prakoshtam. Why is it in Dvitiya Vibhakti?
Prakoshtam, to the room. Aham. See, you say aham devalayam gachami. Aham grahe tishtami. Okay, there is a difference. You should not think of it in from an English language point of view.
Okay,
if you can think of it on in your mother tongue, it may help.
So the broom is brought to the room. Is that what
the
is?
worker again, it is rough translation. The worker brings the broom to the room.
Okay, to the room. Okay, prakoshtam.
Here, prakoshte is the word that is in Dvitiya Vibhakti, is it?
Prakoshte is a saptam in the room. Okay.
Prakoshtam naiti, okay.
भूमि भगिनी अग्रिमं करोतु.
बालिका विद्यालयं लेखनीं नयति.
सम्यक्। हेमाङ्गी भगिनी अग्रिमम्।
आचार्यः छात्रान् गीताः बोधयति।
पुनः चिन्तयित्वा वदतु।
आचार्यः छात्रान्
गीता इस् वाट् लिङ्ग वचनम्?
अकारान्त स्त्रीलिङ्ग।
द्वितीयाविभक्ति एकवचनं किं?
गीतां, सोरि, गीतां बोधयति।
पुनः वदतु वाक्यम्।
आचार्यः छात्रान् गीतां बोधयति।
धन्यवादः भगिनि, सम्यक्।
धन्यवादः
महोदय। एकः प्रश्नः अस्ति वा? We want to be able to know the Bahuvachan, is it from Pullinga or Strilinga, right? For the Chhatra, it could be Chhatraha or it could be Chhatra. So, is it right if you do the Chhatran or Chhatraha?
You were not clear, Bhagini. Can you repeat the question?
Okay. So, for here, there is the Bahuvachan like Chhatraha. So, it could be Chhatraha or Chhatra. Because it's not clear, so is it okay? We can use either or, right?
Exactly. But when in doubt, like I said, when in doubt, use the Pullinga Shabda.
Okay.
But you will not be wrong if you say Chhatraha. Good observation, Bhagini. Dhanyavada.
Dhanyavada.
माधवी भगिनी
पितामही पौत्रान् कथाः कथयति।
सम्यक् भगिनि, उत्तमं, धन्यवादः। जया भगिनी अग्रिमम्।
प्रजाः महाराजान् क्लेशाः निवेदयन्ति।
महाराजः द्वितीया विभक्ति एकवचनं किं भवति?
महाराजम्।
पुनः वदतु वाक्यम्, पूर्णवाक्यं वदतु।
प्रजाः महाराजं क्लेशाः निवेदयन्ति।
सम्यक् भगिनि, धन्यवादः।
धन्यवादः।
मञ्जु महोदय अग्रिमं करोतु।
अपराधी आरक्षकं क्षमां प्रार्थयते।
सम्यक्, धन्यवादः। रामेश्वरी भगिनी अग्रिमम्।
अध्यापकः छात्रान् प्रश्नान् पृच्छति।
सम्यक् भगिनि, धन्यवादः।
धन्यवादः।
सरस्वती भगिनी अन्तिमं करोतु।
सः वयं विकम्स् अस्रैट् अस्मान् सः अस्मान् पुत्रान् उपदिशति पुत्राः।
इट् इस् व्हाट् इस् द वर्ड् देयर्, केन् यू सी?
मन्त्राः, ओके, मन्त्रान् उपदिशति। ओके, सः सः अस्मन् मन्त्रान् उपदिशति.
अस्मान् सः अस्मान् मन्त्रान् उपदिशति.
सः अस्मान् मन्त्रान् उपदिशति.
सम्यक्, धन्यवादः भगिनि.
धन्यवादः.
किञ्चित् पश्यामः विभक्ति सो गुड् जाब् एव्रिबडि. ऐ थिङ्क् उत्तमकार्यं कृतवन्तः सर्वे. लिटल् डिफिकल्ट् विथौट् लुकिङ्ग् एट् द टेबल्. ऐ थिङ्क् वि डिड् ग्रेट्. किञ्चित् गृहे अपि पठन्तु. सो देवः सञ्जना भगिनी. सो दिस् इस् अ टेबल् फार् अकारान्त पुल्लिङ्ग. केन् यु रीड् दिस् फ्रम् टाप् टु बाटम्? देवः देवौ देवाः. जस्ट् कीप् गोयिङ्ग् स्लोलि.
देवः दैवै देवा
देवौ.
ओ यस्. ओ देवौ देवाः. देवं देवो देवान् देवान्. देवेन देवेन देवाभ्यं प्यां देवः
देवैः. इस् इट् नाट् क्लियर्? शुड् ऐ
या
देवैः. ओके, अग्रिमम् अस्तु भगिनि. अस्तु भगिनि, धन्यवादः. विल् हेव् समबडी एल्स् आल्सो रीड्. सुहासिनी भगिनि फ्रम् द चतुर्थी, केन् यु रीड्?
देवाय देवाभ्यां देवाभ्यः देवेभ्यः पञ्चमी देवात् देवाभ्यां देवेभ्यः षष्ठी देवस्य योः देवानां. सप्तमी देवयोः देवेषु संबोधन हे देव हे देवौ हे देवाः.
सम्यक् भगिनि, धन्यवादः. क्षम्यताम्, इट्स् नाट् वेरि क्लियर्. ऐ विल् ट्रै टु गेट् अ बेटर् कापि नेक्स्ट् टैम्. सम्यक्. मञ्जु महोदय, लुकिङ्ग् एट् दिस्, केन् यु से द टेबल् फार् रामः?
ओके,
just do the prathama and dvitiya.
Okay. Ramah ramau ramaha. Ramam ramau raman.
Dhanyavad mahodaya, uttama. Aparna bhagini, tritiya chaturthi karotu ramah shabdasya.
रामे तृतीया रामेण रामाभ्यां रामैः रामैः. चतुर्थी रामाय रामाभ्यां रामेभ्यः.
धन्यवादः भगिनी, सम्यक् उत्तमं. सो Tritiya for Ramaha will be Ramena. There are some sutram masti, which we will see later. So if there is a ra in the word, the na becomes a na. So Rame. So ra, sha. So we'll see that. Okay, Ramena Bhavati. Ramena Ramabhyam. Ramaihi. Ramaya Ramabhyam. Ramebhyam. Then you. Subodh Mahodaya, Panchami Shashti Karotu, Ramaha Shabdasya.
Okay. Ramat, Ramabhyam, Ramebhyah, Ramasya, Ramayoho, Ramanam.
Dhanyavada Mahodaya. Sunil Mahodaya, Saptami Sambodhanam Cha.
Rame, Ramayoho, Rameshu. Sambodhana, He Rama, He Ramao, He Ramaha.
So, Kinchit Ratanam Karaniyam Atra. Okay, so initially you will have to like sort of memorize it, and with usage it will become easier. So right now I think the best way would be to at least memorize one of, you know, if you know one, then for that type you will know everything else. So as we go along, we'll look at different ones. So today we looked at the Akaranta Pullinga. So the next week we'll do one by one. Okay, just to introduce you to all the seven by three or eight by three, you can say, including the Sambodhana.
In the exercises, we did even the Strilinga and Napunsakalinga also, right, Mahodaya? Dhiya Vibhakti.
Which Vibhakti, Bhagini?
Dvitiya Vibhakti exercises, we did even the Napunsakalinga and Strilinga also today, right?
Yes, we did. But since we are running short on time, we'll continue in the next class.
Okay,
so hopefully with this, we will end the Dvitiya Vibhakti. So I would suggest just revise on the Vibhakti Vallari. Okay. And we will start with Tritiya Vibhakti next week. And if you have any questions, please come to the next class and we'll address them at the beginning.
Okay.
Who was that who was speaking?
This is Sahitya.
Okay. We didn't get to you. So another thing I would say is, if we forget, since there are quite a number of people, if I don't get to some of you, and I apologize, maybe I didn't get everybody, please raise your voice and say you want to say it. I mean, you're welcome to do that or stay quiet, like some of you did. But we encourage you to participate. Okay. The only way to learn is to try, do mistakes, and then, you know, it'll come to you.
Where can I get this book, Mahadeva?
What is it, Bhagini? You were saying something?
The book that you're following, where can I get it?
See, it's available in Sanskrit Bharati. Is this Saitya? Okay, I will send you an email about that. But we encourage you to buy from the Sanskrit Bharati PDF. I don't know whether it's available yet. But I'll send you for now. But we encourage you to buy the books. But I will send you that. Okay,
thank you.
Somebody else had any question?
Bhagini, going forward, are we going to look at the Kshatranta Padam?
That is little bit advanced, Bhagini. It's not for the second. We just explained because it was given in the Vibhakti Vallari for some reason, but it comes later, third or fourth level, third level,
okay.
I think.
Okay, fine.
Okay.
Dhanyavada.
So, Bhagini, that is very complicated because those words in themselves have vibhaktis. Okay, so, and there is a linga bedaha. So, it gets very complicated and this is not the right time to address those.
Okay.
So,
no,
we'll
stick
to...
It is given in the second page. That is why I asked because I'm not familiar with that thing. We have not covered it. So, yeah.
Right. I don't know why they gave it at this stage, but we won't be seeing that most probably at this level. Okay, it's a little complicated.
Okay.
So, Mother, where can I get the recording of the first class, Mohdaya?
The link, the email is sent after the class. So you can go there. But if you have any of the old emails, the link will be the same. You may have to scroll up and down to find the latest, but it's all date-based. So it'll be easy for you. And what we'll do is we'll move the Vibhakti Vallari classes to the top so you can easily access it. I think now it was a little difficult to find because it was in the middle somewhere. But we'll move it to the top so everybody can easily access it.
So is today's class second class or third class, Mohan?
Today's is the second.